अथ सप्तमोऽध्यायः ध्यानम् ॐ ध्यायेयं रत्नपीठे शुककलपठितम् श्रृण्वतीं श्यामलाङ्गी न्यस्ते कान्ध्रीं सरोजे शशि सकलभरा वल्लकीं वादयन्तीं कल्हारबद्धमाला नियमितविलसज्जोलिका रतवस्त्रा मातङ्गीं शङ्खपात्रा मधुरमधुमदा चित्रकोद्भासि
सर्वमसुराणां दुरात्मनां
अमरदा भक्षयच्चान्यानन्याश्चाताडयत्तथा असिना निहताः केचित् केचित् खट्वाङ्ग्रताडिताः जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा क्षणेन तद्बलम् सर्वमसुराणाम् निपातितम् दृष्ट्वा चण्डोभिदुद्राव ताम् कालीमतिभीषणाम् सर्वर्षैर्महाभीमैर्भीमाक्षीम् ताम् महासुरः छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः तानि चक्राणि अनेकानि विषमानानि तन्मुखम् बभूर्यथा कबिम्बानि सुबहूनि घनोदरम् ततो जहासा तिरुषा धीमम् भैरव दर्शदशनोज्ज्वला उत्थाय च महासिंह अहम् देवी चण्डमधावत गृहीत्वा चास्य केशेषु शिरस्तेनासिनाक्षिणत् अथ मुण्डोऽप्यधावत्ताम् दृष्ट्वा चण्डम् निपातितम् तमप्यपातयद्भूमौ सा खड्गाभिहतम् रुषा तदशेषम् ततः सैन्यम् दृष्ट्वा चण्डम् निपातितम् मुण्डम् च सुमहावीर्यम् दिशो भेजे भयातुरम् शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च प्राह प्रचण्डात् हासमिश्रमभ्येत्य चण्डिकाम् मया तवात्मपहृतौ चण्डमुण्डौ महापशु युद्धयज्ञे स्वयम् शुम्भम् निशुम्भम् च हनिष्यसि ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ उवाच कालीम् कल्याणी ललितम् चण्डिका वचः यस्माच्चण्डम् च मुण्डम् च गृहीत्वा त्वमुपागता चामुण्डेति ततो लोके ख्याता देवि भविष्यसि ॐ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्मे सप्तमः श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु।